Namantranno yantran tadapi chana jani stuti maho Na chavanam dhyanam tadapi chana jani stuti katha न जाने मुद्रास्ते तदपि च न जाने विलपनम् परम् जाने मातस्त्वदनुसरणम् क्लेशहरणम् विधेरज्ञानेन द्रविण विरहेणालसतया विधेया शक्यत्वात्तव चरणयोर्याच्युतिरभू तदेतत्क्षन्तव्यम् जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति पृथिव्याम् पुत्रास्ते जननि बहवः सन्ति सरला परम् तेषाम् मध्ये विरलतरलोऽहम् तव सुतः मदीयोऽयम् त्यागः समुचितमिदम् नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति तव चरण सेवादरचिता न वा दत्तम् देवि द्रविणमपि भूयस्तव मया तथापि त्वम् स्नेहम् मयि निरुपमम् यत् प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति परित्यक्ता देवा विविध विध सेवा कुलतया मया पञ्चाशीतेरधिकमपनीते तु वयसि इदानीम् चेन्मातस्तव यदि कृपा नापि भविता निरालम्बोलम्बोदरजननिकम् यामि शरणम् स्वपाको जल्पाको भवति मधुपाको पमगिरा निरातंको रंको विहरति चिरं कोटिकनकै तवापर्णे कर्णे विशति मनुवर्णे फलमिदम् जनको जानीते जननि जपनीयं जपविधम् चिताभस्मालेपो गरलमशनम् विपटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपति कपाली भूतेशो भजति जगदीशैकपदवी भवानि त्वत्पाणि ग्रहणपरिपाटी फलमिद न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः अतस्त्वाम् संयाचे जननि जननम् यातु मम वै मृणानि रुद्राणि शिव शिव भवानी